चित्रं त्रयोदशः। इदं येसस्य जन्मविशेषं। तस्य दिनेषु राजानाम् इदं प्रकारम् आज्ञं ददति। केना तत्? तस्य पुराणानि ग्रामेण गच्छ। मरियम्मा च युसेबस्य बेत्लेहेमस्य ग्रामपुरेण ता अवश्यं गच्छति। तत्ते बेत्लेमः ग्रामेण प्रविशितं। सा निवासयोग्यस्थलं नाति। इदं कारणेन तः आकरस्य एकः पशुस्यालेन लभ्यते। इदं स्थलेन मरियम्मस्य ईशुस्य जन्मं ददति। तत् रात्रेण स्वर्गदूतः गोपालेभ्यं प्रकटितम्। तत्समयेन गोपालः तेषु पशूनां पालयन्ति स्म। स्वर्गदूता तस्य समीपेन प्रकटितम्। त्वमेवायात् अहम् एकं शुभवार्ता ददन्ति। इदं सर्वजनानार्थम्। इयं दिवसेन एकः रक्षतः आविर्भवति। सः मिषेया प्रभु। एककालेषु स्वर्गेषु सब्दूतानां प्रकटयन्ति च तस्यं कीर्तयन्तः च ईश्वरस्य महिमानां प्रकटितम्। गोपालानां वदन्ति यूयम् अहं बेत्लेहेम ग्रामस्य गच्छिताम् इति। तेषु पश्यति। तदनन्तरं तेषु ईशुष्येना पश्यन्ति। तेषु तस्य सम्पूर्ण वदामि। तेषु अन्यतमा जनाङ्गानि वदन्ति। प्रभु ईशस्य सन्दर्भेन श्रूयन्ति। सर्वजनानाम् इदमस्य वचनां श्रूयन्ते इव। तेषु तत् श्रूयन्ता समयेन ते अनन्तरं भयभ्रान्तः अस्ति।